ओम नमो भगवते वासुदेवाय। अथ चतुःपञ्चाशत्तमोऽध्यायः। श्रीशुक उवाच, इति सर्वेषु संरब्धा वाहनारुह्यदंशिताः स्वैः स्वैर्बलैः परिक्रान्ता अन्वीयुर्धृतकार्मुकाः तानापतत आलोक्य यादवानीकयूथपाः तस्थुस्तत्सम्मुखा राजन् विस्फूर्ज्य स्वधनूंषिते अश्वपृष्ठे गजस्कन्धे रथोपस्थे च कोविदाः मुमुचुः शरवर्षाणि मेघा अदृश्वपो यथा पत्युर्बलम् शरासारैश्छन्नम् वीक्ष्य सुमध्यमा सव्रीडमैक्षत्तद्वक्त्रम् भयविह्वललोचना प्रहस्य भगवानाः मास्मभैर्वामलोचने विनंशत्यधुनैवैतत्तावकैशात्रवम् बलम् तेषाम् तद्विक्रमम् वीरागतसङ्कर्षणादयः अमृष्यमाणा नाराचैर्जग्नुर्हय गजान् रथान् पेतोशिरांसि रथिनामश्विनाम् गजिनाम् भुवि सकुण्डलकिरीटानि सोष्णीषाणि च कोटिशः हस्तासासिकदेश्वासाः करभा ऊरवोऽङ्घ्रयः अश्वाश्वतरनागोष्ट्र खरमर्त्यशिरांसि च हन्यमानबलानीका वृष्णिभिर्जयकाङ्क्षिभिः राजानो विमुखा जग्मुर्जरासन्धपुरः सराः शिशुपालम् समभ्येत्य हृतदारमिवातुरम् नष्टत्विषम् गतोत्साहम् शुष्यद्वदनमब्रुवन् भोः पुरुषशार्दूलदौर्मनस्यमिदम् त्यज न प्रिया प्रिययो राजन्निष्ठा देहि सुदृश्यते यथा दारुमयी योषिन्नृत्यते कुहकेच्छया एवमीश्वरतन्त्रोयमीहते सुखदुःखयोः शौरे सप्तदशाहम् वै संयुगानि पराजितः त्रयोविंशतिभिः सैन्यैर्जिज्ञ एकमहम् परम् तथाप्यहम् न शोचामि न प्रहरिष्यामि कर्हिचित् कालेन दैवयुक्तेन जानन् विद्रावितम् जगत् अधुनापि वयम् सर्वे वीरयूथपयूथपाः पराजिता फल्गुतन्त्रैर्यदुभिः कृष्णपालितैः रिपवो जिज्ञुरधुना काल आत्मानुसारिणि तदा वयम् विजेष्यामो यदा कालः प्रदक्षिणः एवम् प्रबोधितो मित्रैश्चैद्योगात् सानुगः पुरम् हतशेषा पुनस्तेऽपि ययुः स्वम् स्वम् पुरम् नृपाः रुक्मी तु राक्षसोद्वाहम् कृष्णद्विडसहन् स्वसुः पृष्ठतोऽन्वगमत्कृष्णमक्षौहिण्यावृतो बली रुक्म्यमर्षि सुसंरब्धः शृण्वताम् सर्वभूभुजाम् प्रतिजज्ञे महाबाहुर्दंशितः स शरासनः अहत्वा समरे कृष्णमप्रत्यूय च रुक्मिणीम् कुण्डिनम् न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमिवः इत्युक्त्वा रथमारुह्य सारथिम् प्राह सत्वरः चोदयाश्वान् यतः कृष्णस्तस्य मे संयुगम् भवेत् अद्याहम् निशितैर्बाणैर्गोपालस्य सुदुर्मतेः नेष्ये वीर्यमदम् येन स्वसा मे प्रसभम् हृता विकत्थमानः कुमतिरीश्वरस्याप्रमाणवित् रथेनैकेन गोविन्दम् तिष्ठतिष्ठेत्यथाह्वयत् धनुर्विकृष्य सुदृढम् जग्ने कृष्णम् त्रिभिः शरैः आह चात्र क्षणम् तिष्ठ यदूनाम् कुलपांसन कुत्र यासि स्वसारम् मे मुषित्वा ध्वांक्षबद्धभिः हरिष्येद्यमदम् मन्दमायिनः कूटयोधिनः यावन्न मे हतो बाणैः शयिथा मुञ्चदारिकाम् स्मयन् कृष्णो धनुश्छित्त्वा सद्भिर्विव्याधरुक्मिणम् अष्टभिश्चतुरो वाहान् द्वाभ्याम् सूतम् ध्वजम् त्रिभिः स चान्यद्धनुरादाय कृष्णम् विव्याध पञ्चभिः तैस्ताडित सरौघैस्तु चिच्छेद धनुरच्युतः पुनरन्यदुपादत्त तदप्यच्छिनदव्ययः परिघम् पट्टिशंशूलम् चर्मासि शक्तितोमरौ यद्यदायुधमादत्त तत्सर्वम् सोच्छिनद्धरिः ततो रथादवप्लुत्य खड्गपाणिर्जिघांसया कृष्णमभ्यद्रवत्क्रुद्धः पतङ्ग इव पावकम् तस्य चापततः खड्गम् तिलशश्चर्म चेशुभिः छित्त्वा सिमाददे तिग्मम् रुक्मिणम् हन्तुमुद्यतः दृष्ट्वा भ्रातृवधोद्योगम् रुक्मिणी भयविह्वला पतित्वा पादयोर्भर्तुर्वाच करुणम् सती योगेश्वरा प्रमेयात्मन् देवदेव जगत्पते हन्तुम् नार्हसि कल्याण भ्रातरम् मे महाभुज। श्रीशुक उवाच, तया परित्रा स विकम्पिताङ्गया शुचा वसुष्यन्मुखरुद्धकण्ठया कातर्य विस्रंसित हेममालया गृहीतपादः करुणो न्यवर्तत शैलेन बद्ध्वा तमसाधुकारिणम् सस्मश्रुकेशम् प्रवपन् व्यरूपयत् तावन्ममर्दुः परसैन्यमद्भुतम् यदुप्रवीरा नलिनीम् यथा गजाः कृष्णान्तिकमुपव्रज्य ददृशुस्तत्र रुक्मिणम् तथा भूतम् हतप्रायम् दृष्ट्वा सङ्कर्षणो विपुः विमुच्य बद्धम् करुणो भगवान् कृष्णमब्रवीत् असाध्विदम् त्वया कृष्ण कृतमस्मज्जुगुप्सितम् वपनम् स्मश्रुकेशानाम् वैरूप्यम् सुहृदो वधः मैवास्मान् साध्व्यसूयेथ भ्रातुर्वैरूप्यचिन्तया सुखदुःखदो न चान्योऽस्ति यत स्वकृतभुक्पुमान् बन्धुर्वधार्ह दोषोऽपि न बन्धोर्वधमर्हति त्याज्यः स्वेनैव दोषेण हतः किम् हन्यते पुनः क्षत्रियाणामयम् धर्मः प्रजापतिविनिर्मितः भ्रातापि भ्रातरम् हन्याद्येन घोरतरस्ततः राज्यस्य भूमेर्वित्तस्य स्त्रियो मानस्य तेजसः मानिनोऽन्यस्य वाहेतो श्रीमदान्धा क्षिपन्ति हि तवेयम् विषमा बुद्धिः सर्वभूतेषु दुर्हृदाम् यन्मन्यसे सदा भद्रम् सुहृदाम् भद्रमज्ञवत् आत्ममोहो नृणामेष कल्प्यते देवमायया सुहृद्दुहृद्दुदासीन इति देहात्ममानिनाम् एक एव परोह्यात्मा सर्वेषामपि देहिनाम् नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः देह आद्यन्तवानेष द्रव्यप्राणगुणात्मकः आत्मन्यविद्यया क्लृप्तः संसारयति देहिनम् नात्मनोऽन्येन संयोगो वियोगश्चासतः सति तद्धेतुत्वात्तत्प्रसिद्धेर्दृग्रूपाभ्याम् यथा रवेः जन्मादयस्तु देहस्य विक्रियानात्मनः क्वचित् कलानामिव नैवेन्दोर्मृतिर्यस्य कुहूरिव यथा शयान आत्मानम् विषयान् फलमेव च अनुभुङ्क्तेऽप्यसत्यर्थे तथाप्नोत्यबुधो भवम् तस्मादज्ञानजम् शोकमात्मशोषविमोहनम् तत्त्वज्ञानेन निहृत्य स्वस्था भव शुचिस्मिते श्रीशुक उवाच एवम् भगवता तन्वी रामेण प्रतिबोधिता वैमनस्यम् परित्यज्य मनोबुद्ध्या समादधे प्राणावशेष उत्सृष्टो द्विद्भिर्हतबलप्रभः स्मरन् विरूपकरणम् वितथात्ममनोरथः चक्रे भोजकटम् नाम निवासाय महत्पुरम् अहत्वा दुर्मतिम् कृष्णमप्रत्यूय यवीयसीम् कुण्डिनम् न प्रवेक्ष्यामीत्युक्त्वा तत्रावसदृशा भगवान् भीष्मकसुतामेवम् निर्जित्य भूमिपान् पुरमानीय विधिवदुपये मे कुरुद्वः तदा महोत्सवो नृणाम् यदुपुर्याम् गृहे गृहे अभूदनन्यभावानाम् कृष्णे यदुपतौ नृप नरा नार्यश्च मुदिताः प्रमृष्टमणिकुण्डलाः पारिबर्हमुपाजर्रुर्वरयोश्चित्रवाससोः सा वृष्णिपुर्युत्तभितेन्द्रकेतुभिर्विचित्रमाल्याम्बररत्नतोरणैः बभौ प्रतिद्वार्युपक्लिप्तमङ्गलैरापूर्णकुम्भा गुरुधूपदीपकैः सिक्तमार्गामदच्युद्भिराहूतप्रेष्ठभूभुजाम् गदैर्द्वास्तु परामृष्टरम्भापूगोपशोभिता कुरुसृञ्जय कैकेय विदर्भयदुकुन्तयः मिथो मुमुदिरे तस्मिन् सम्भ्रमात् परिधावताम् रुक्मिण्या हरणम् श्रुत्वा गीयमानम् ततस्ततः राजानो राजकन्याश्च बभूवुर्भृशविस्मिताः द्वारकायामभूद् राजन्महामोदः पुरौकताम् रुक्मिण्या रमयोपेतम् दृष्ट्वा कृष्णम् श्रियःपतिम् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहे चतुःपञ्चाशत्तमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।